ప్రతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆనశృణ్వన్నోతిభిః సీదసాదనం ప్రణో దేవీ సరస్వతీ వాచేభిః వాజినీమతీ ధీరామవిత్రియవతు గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమన్యవ ఉతోత ఇషవే నమః నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః యాత ఇషు శివతమా శివం బభూవతే ధనుః శివాయ రవ్యాయాతవతయానో రుద్రమృడయా యాతే రుద్ర శివా తనూర ఘోరా పాపకాశినీ తయానస్తను వాశంతమయా గిరిశంతాభిజాగశీ యామిషుం గిరిశంతహస్తే బిభర్ష్యస్తవే శివాంగిరిత్రతాం గురుమాయి గుంసే పురుషం జగత్ శివేన వచసా త్వా గిరిశాచ్ఛావదామసి యథా నః సర్వమిజ్జగద యక్ష్మగుం సుమనా అసత్ అధ్యవోచదధి వక్తా ప్రథమో దైవ్యోభిషక్ అహేగశ్చ సర్వాన్ జంభయన్ సర్వాశ్చ యాతు ధాన్యః అతో యస్తామ్రో అరుణ ఉత బభ్రస్సు మంగళః ఏ చేమాగుం రుద్ర అభితో దిక్షశ్రితాత్ సహస్రశో వైశాగుం హేడ ఈమహే అసవ్యో వసత్పతి నీలగ్రీవో విలోహితః ఉదైనం గోపా అదృశన్నదృశన్నుదహార్యః ఉదైనం విశ్వభూతాని సదృష్టో మృడయాదినః నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీఢుషే అధోయే అస్య సత్వానోహం దేభ్యో కరన్నమః ప్రముంచ ధన్వనస్త్వముభయోరాత్మియోర్జ్యాం యాశ్చ తే హస్త ఇషవః పరాతా భగవోవప అవతత్య ధనుస్త్వగుం సహస్రాక్షసతేషుధే నిషేర్య శల్యాణాముగా శివో నః సుమనాభవ విజ్యం ధనుః కపర్దినో విశల్యో బాణవాగుం ఉత అనేషన్నస్యేషవ ఆభురస్య నిషంగతిః యాతే హేతిర్మీడుష్టమహస్తే బభూవతే ధనుః తయాస్మాన్ విశ్వతస్త్వమయక్ష్మయా పరిభుజ నమస్తే అస్వాయుధాయ నాతతాయ ధృష్ణవే ఉభావ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్ మృణక్తు విశ్వతః అథోయ ఇషుదిస్తవారే అస్మన్నిదేహితం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्मिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्लुषाय विव्याधिनेनानां पतये नमो नमो हरिकेशायोपवीदिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्रायाततारिणे क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय सपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्त्रितायौषधीनाम् पतये नमो नम उच्चैर्दोषाया क्रन्दयते पत्तीनाम् पतये नमो नमः कृत्स्नवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषुधिमते तत्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः सृकाविभ्यो जिगागुम् सद्भ्यो मुष्टदाम् पतये नमो नमो सिमद्भ्यो नक्तम् चरद्य प्रगृन्दानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्जानाम् पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रदिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीमेभ्य शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम सिष्टद्भ्यो धावभ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो प्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो రథపతిభ్యశ్చ వో నమో నమః సేనాభ్యసేనానిభ్యశ్చ వో నమో నమః క్షత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమః రక్షభ్యోరథకారేభ్యశ్చ వో నమో నమః కులాలేభ్యః కర్మాలేభ్యశ్చ వో నమో నమః పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమః ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయోభ్యశ్వనిభ్యశ్చ వో నమో నమః శ్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతగే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ వ్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపిభిష్టాయ చ నమో మేడుట్టమాయ జేషుమతే చ నమో రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షీయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవే చాచిరాయ చ నమః శీఘ్రియాయ చ శేభ్యాయ చ నమః ఊర్భ్యాయ చ వత్స్వన్యాయ చ నమః శ్రోతస్యాయ చ ద్వేభ్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్భాయ చ నమో జగన్యాయ చ బుద్ధ్యాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్త్యాయ చ ఖల్యాయ చ నమః శ్లోక్యాయ చావసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురథాయ చ నమః శూరాయ చ వబిందతే చ నమో వర్మిణే చ వరుధినే చ నమో భీమినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ గణన్యాయ చ నమో దృష్ణవే చ ప్రమృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేషు ధీమతే చ నమః శేష్ణేశవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పథ్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః సూద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమః కోప్యాయ చ పట్యాయ చ నమో వశ్యాయ చ వశ్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఈద్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర హర ఖర ఖర ఓం నమః సోమాయ చ రుద్రాయ చ నమః సామ్రాయ చారుణాయ చ నమః శంగాయ చ పశుపతగే చ నమః ఉగ్రాయ చ భీమాయ చ నమో अग्रे वधाय च दूरे वधाय च नमो अन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः स्तीर्त्याय च कोद्याय च नमः पाद्याय च वाद्याय च नमः प्रतरणाय चोत्तरणाय च नमः आस्थाद्याय जालाद्याय च नमः चष्ट्याय च भेन्याय च नमः त्रिगत्याय च प्रभाग्याय च नमः इरिण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तगे च नमो गोष्ठ्याय च गृह्याय च नमः स्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेष्ट्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय च लप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपगुरमाणाय च भिघ्नते च नमः आख्यदते च प्रख्यदते च नमो वक्रिकेभ्यो देवानागम् हृदयेभ्यो नमो विक्षीणगेभ्यो नमो विचिन्वक्केभ्यो नम आनिर्हतेभ्यो नम आमीवक्केभ्यः द्रावे अन्धस्पदे दरिद्रन्नीलदोहिता एषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मारोमो येषाम् किञ्चनामत् या ते रुद्रशिवा तनो शिवा विश्वाः भेषजी शिवा रुद्रस्य भेषजीतया नो मृडजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रबरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोदनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्चम् च योश्च मनुराय जे पिता तदश्यामतवरुद्र प्रणीतौ मानो महान्तमुदमानो अर्भगम् मान उक्षन्तमुदमान उक्षितम् मानो वधे पितरम् मोदमातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके तनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामितो वधेर्हविष्मन्तो नमसा विधेमते आराते गोग्न उत पोरुषग्ने क्षयद्वीराय सुम् नमस्मे ते अस्तु रक्षाजनो अधिजदेव ब्रूह्यथा च नः शर्म यच्छद्विबरुहाः स्तु हि श्रुतम् दत्त सदम् युवानम् मृगन्न भीममुपहत्नमुग्रम् मृडा च रुद्रे रुद्रस्तवानो नन्यन्ते अस्मान्निवपन्तु सेनाः परिणो रुद्रस्य हेते वृणत्व परित्वेषस्य दुर्मतिरघायोः अवस्थिरा मगवद्यस्तनुष्वमीढोकायतनयाय मृडया मीढुष्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधन् निधाय कृत्यम् वसा नमाचर पिनागम् विभ्रदागहे विगिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराजेना मुखाकृते सहस्राणि सहस्रशो ये रुद्रारिभूम्या तेषागुम् सहस्रयो जने वधन्मानि तन्मसे अस्मिन् महत्यर्नवेन्दरिक्षे भवा अदे नीलग्रीवाशितिकण्ठा सर्वा अधः क्षमाचराः नीलग्रीवाशितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयोभिषिकातः कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम्बधिरक्षयैलभृदाय व्युदः ये तीर्थानि प्रजरन्ति सृगावन्दो निषङ्गिनः य एतावन्दश्च भूयागुन्दश्च दिशो रुद्रावितस्थिरे तेषागुम् सहस्रयो जने वदन्मानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येन्दरिक्षे गे दिवि ये शामन्नम् पातो वरुषमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशो देचेर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् विश्वो यच्च नो ष्टितम् भोजम् भे दधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्रव्यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मध्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे नृत्यवे स्वाहा नृत्यवे स्वाहा प्राणानाम् ग्रन्थिरधिरुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि नमस्तु हि यस्य शस्वदन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमो भिर्देवमसुरम् नुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेदजो यगुम् शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ अग्नावि विष्णु सदोष सीमा वर्धन्तु वाम् गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च मायुश्च मे जरा च मात्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जैष्ठ्यम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्छ मे धनम् च मे वशश्च मे द्विजश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमानम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्भिश्च मे कृप्तम् च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे शम् च मे मयश्च मे प्रियम् च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सद्भिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रम् च मौद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भोयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कोयवाश्च मे नम् च मे क्षुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिराश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे णवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिगताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे ಶಾಮಂ ಚ ಮೇ ಲೋಹಂ ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಆಪಶ್ಚ ಮೇ ವಿರುಧಶ್ಚ ಮ ಔಷಧಯಶ್ಚ ಮೇ ಕೃಷ್ಟಪಚ್ಯಂ ಚ ಮೇ ಕೃಷ್ಟಪಚ್ಯಂ ಚ ಮೇ ಗ್ರಾಮ್ಯಾಶ್ಚ ಮೇ ಪಶವ ಆರಣ್ಯಾಶ್ಚ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾಂ ವಿತ್ತಂ ಚ ಮೇ ವಿತ್ತಿಶ್ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭೂತಿಶ್ಚ ಮೇ ವಸು ಚ ಮೇ ವಸತಿಶ್ಚ ಮೇ ಕರ್ಮ ಚ ಮೇ ಶಕ್ತಿಶ್ಚ ಮೇ ಅರ್ಥಶ್ಚ ಮ ಏವಶ್ಚ ಮ ಇತಿಶ್ಚ ಮೇ ಗತಿಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸೋಮಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸವಿತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸರಸ್ವತಿ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಪೂಷಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಬೃಹಸ್ಪತಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮಿತ್ರಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವರುಣಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ತ್ವಷ್ಟಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಧಾತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವಿಷ್ಣುಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಶ್ವಿನೋ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮರುತಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವಿಶ್ವೇ ಚ ಮೇ ದೇವಾ ಇಂದ್ರಶ್ಚ ಮೇ ಪೃಥಿವೇ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇಂತರಿಕ್ಷಂ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ದ್ಯೋಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ದಿಶಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮೂರ್ಧಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಪ್ರಜಾಪತಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಅವುಂಶುಶ್ಚ ಮೇ ರಶ್ಮಿಶ್ಚ ಮೇದಾಭ್ಯಶ್ಚ ಮೇಧಿಪತಿಶ್ಚ ಮ ಉಪಾಗುಂಶುಶ್ಚ ಮೇ ಅಂತರ್ಯಾಮಶ್ಚ ಮ ಐಂದ್ರವಾಯವಶ್ಚ ಮೇ ಮೈತ್ರಾವರುಣಶ್ಚ ಮ ಅಶ್ವಿನಶ್ಚ ಮೇ ಪ್ರತಿಪ್ರಸ್ಥಾನಶ್ಚ ಮೇ ಶುಕ್ರಶ್ಚ ಮೇ ಮಂಥೇ ಚ ಮ ಆಗ್ರಯಣಶ್ಚ ಮೇ ವೈಶ್ವದೇವಶ್ಚ ಮೇ ಧ್ರುವಶ್ಚ ಮೇ ವೈಶ್ವಾನರಶ್ಚ ಮರುತುಗ್ರಹಾಶ್ಚ ಮೇತಿ ಗ್ರಾಹ್ಯಾಶ್ಚ ಮ ಐಂದ್ರಾಗ್ನಶ್ಚ ಮೇ ವೈಶ್ವದೇವಶ್ಚ ಮೇ ಮರುತ್ವದೇಯಾಶ್ಚ ಮೇ ಮಾಹೇಂದ್ರಶ್ಚ ಮ ಆದಿತ್ಯಶ್ಚ ಮೇ ಸಾವಿತ್ರಶ್ಚ ಮೇ ಸಾರಸ್ವತಶ್ಚ ಮೇ ಪೌಷ್ಣಶ್ಚ ಮೇ ಪಾರ್ಥಿವತಶ್ಚ ಮೇ ಹಾರ್ಯೋಜನಶ್ಚ ಮೇ ಇದ್ಮಶ್ಚ ಮೇ ಬರ್ಹಿಶ್ಚ ಮೇ ವೇದಿಶ್ಚ ಮೇ ಧಿಷ್ಣಿಯಾಶ್ಚ ಮೇ ಶ್ರುತಶ್ಚ ಮೇ ಚಮಸಾಶ್ಚ ಮೇ ಗ್ರಾವಾನಶ್ಚ ಮೇ ಸ್ವರವಶ್ಚ ಮ ಉಪರವಾಶ್ಚ ಮೇ ಧಿಷವನೆ ಚ ಮೇ ದ್ರೋಣಕಲಶಶ್ಚ ಮೇ ವಾಯವ್ಯಾನಿ ಚ ಮೇ ಪೋತವೃಚ್ಛ ಮ ಆಧವನೀಯಶ್ಚ ಮ ಆಗ್ನೇಧ್ರಂ ಚ ಮೇ ಹವಿರ್ಧಾನಂ ಚ ಮೇ ಗೃಹಾಶ್ಚ ಮೇ ಸದಶ್ಚ ಮೇ ಪುರೋಡಾಶಾಶ್ಚ ಮೇ ಪಚದಾಶ್ಚ ಮೇ ವವೃದಶ್ಚ ಮೇ ಸ್ವಗಾಕಾರಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮೇ ಘರ್ಮಶ್ಚ ಮೇರ್ಕಶ್ಚ ಮೇ ಸೂರ್ಯಶ್ಚ ಮೇ ಪ್ರಾಣಶ್ಚ ಮೇ ಶ್ವಮೇಧಶ್ಚ ಮೇ ಪೃಥಿವೀ ಚ ಮೇ ದಿತಿಶ್ಚ ಮೇ ದಿತಿಶ್ಚ ಮೇ ದ್ಯೋಶ್ಚ ಮೇ ಶಕ್ವರೀರಂಗುಲಯೋ ದಿಶಶ್ಚ ಮೇ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾಮೃಕ್ಷ ಮೇ ಸಾಮ ಚ ಮೇ ಸೋಮಶ್ಚ ಮೇ ಯಜುಶ್ಚ ಮೇ ದೀಕ್ಷಾ ಚ ಮೇ ತಪಶ್ಚ ಮರುತಶ್ಚ ಮೇ ವ್ರತಂ ಚ ಮೇ ಹೋರಾತ್ರಯೋರ್ವಿಷ್ಟ್ಯಾ ಬೃಹತ್ರದಂತರೇ ಚ ಮೇ ಯಜ್ಞೇನ ಕಲ್ಪೇತಾಂ ಗರ್ಭಾಶ್ಚ ಮೇ ವತ್ಸಾಶ್ಚ ಮೇ ತ್ರಯವಿಶ್ಚ ಮೇ ತ್ರಯವೇ ಚ ಮೇ ದಿತ್ಯವಾಚ್ಚ ಮೇ ದಿತ್ಯೋಹೇ ಚ ಮೇ ಪಂಚಾವಿಶ್ಚ ಮೇ ಪಂಚಾವೇ ಚ ಮೇ ತ್ರಿವತ್ಸಶ್ಚ ಮೇ ತ್ರಿವತ್ಸಾ ಚ ಮೇ ತುರ್ಯವಾಚ್ಚ ಮೇ ತುರ್ಯೋಹೇ ಚ ಮೇ ಪಷ್ಟವಾಚ್ಚ ಮೇ ಪಷ್ಟೌಹೇ ಚ ಮ ಉಕ್ಷಾ ಚ ಮೇ वशाच मर्षभश्च मे वेहच्च मे नड्वाञ्च मे धेनुश्च मायुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताग्श्रोत्रैर्यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेऽष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नेयस्यान्त्यायनस्यान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडादे बहुर्मनुर्यज्ञनिर्बृहस्पतिरुक्ता मदानि सगुंसि षद्विश्वे देवासोक्तवाच पृथिवीमातर्मा माहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तम् वा देवा अवन्तु शोभायै पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तत्सयोरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजं शं नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुं सर्वम् यद्भूतं यच्च भव्यम् उतामृतत्वस्येषानः यदन्नेनातिरोहते एतावानस्य महिमा अतो जायागश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवे त्रिपादोर्ध्वमुदैत्पुरुषः पादोऽस्येहाभवात्पुनः ततो विश्वं व्यक्रामत् शाशनानशने अभि तस्मात् विराड जायत विराजो अधिपुरुषः स धातो अत्यरिच्यत पश्चात् भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्म शरद्धविः सप्तास्यासन् परिदयः त्रिसप्त समिदः कृताः देवायद्यज्ञम् तन्वाणाः अभद्रन् पुरुषम् पशुम् तन्यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वभूतः संभृतम् पृषदाज्यम् पशोगस्तागश्चक्रे वायव्यान् आरण्या ग्राम्याश्च ये तस्माद्यज्ञात् सर्वभूतः ऋषः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एकेशो भयादतः गावोह जग्निरे तस्मात् तस्माज्जात अजावयः यत्पुरुषम् व्यददुः कथिता व्यकल्पयन् मुखम् किमस्य कौ बाहो का वोरुपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः ऊरु तदस्य यद्वैष्यः पद्भ्यां शूद्र अजायत चन्द्रमावनसो जातः चक्षुः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्यासीदन्तरिक्षम् शीर्ष्णाद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन् यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्चतस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् देहनाकम् महिमानः सचन्ते यत्र पूर्वे साद्या सन्ति देवाः अद्य सम्भूत पृथिव्यैरसा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदद्रूपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपते यो देवानां पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचं ब्राह्मं जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवं ब्राह्मणो विद्यात् तस्य देवा असन्वशे क्रेष्यते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमम् मनिषाणा सर्वम् मनिषाणा तच्छञ्योरावृणीमहे गातुञ्यज्ञाय गातुञ्यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ओर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ भद्रम् कर्णेभिःशृणुयामदेवाः भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः सुष्ठुवागुंसस्तनोभिः व्यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षम् तत्त्वमसि त्वमेव केवलम् कर्तासि त्वमेव केवलम् धर्तासि त्वमेव केवलम् हर्तासि त्वमेव सर्वम् खल्विदम् ब्रह्मासि त्वम् साक्षादात्मासि नित्यम् ऋतम् वच्मे सत्यम् वच्मे अवत्वम् माम् अववक्तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवानोचानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरातात् अवदक्षिणातात् अवचोर्ध्वातात् अवाथरातात् सर्वतो माम् पाहि पाहि समन्तात् त्वम् वाङ्मयस्त्वम् चिन्मयः त्वमानन्दमयस्त्वम् ब्रह्ममयः त्वम् सच्चिदानन्दाद्वितीयोऽसि त्वम् प्रत्यक्षम् ब्रह्मासि त्वम् ज्ञानमयो विज्ञानमयोऽसि सर्वम् जगदिदम् त्वत्तो जायते सर्वम् जगदिदम् त्वत्तस्तिष्ठति सर्वम् जगदिदम् त्वैलयमेष्यति सर्वम् जगदिदम् त्वयि प्रत्येति त्वम् भूमिरापो नलो निलो नभः त्वम् चत्वारि वा त्वदानि त्वम् गुणत्रयातीतः त्वम् अवस्थात्रयातीतः त्वम् देहत्रयातीतः त्वम् कालत्रयातीतः त्वम् मूलाधारस्थितोऽसि नित्यम् tvam shaktitrayatmakah tvam yogino dhyayanti nityam tvam brahma tvam vishnustvam rudrastvam indrastvam agnistvam vayustvam suryastvam chandravastvam brahma bhurbhuvasvarom ganadim purvamucharya varnadim sadanantaram anusvara parataraha adhendulasitam tarena ruddham etattava manusvarupam gakara purvarupam akaro madhyama rupam anusvarascandhyarupam binduruttararupam dadasandhanam sagumhita sandhi saisha ganesha vidya ganaka rishi nishrugayatri chandaha ganapatir devata Om Ganganapataye Namaha Ekadantaya Vidmahe Vakratundaya Dhimahe Tanno Dantim Prachodayat Ekadantam Chaturhastam Pasham Ankushadharinam Radam Chavaradam Hastair Vibhranam Moshakadvajam Raktam lambodaram shurpakarnakam raktavasasam raktagandhanuliptangam raktapushpai sumojitam bhaktanukampinam devam jagatkaranamachyutam avirbhutam cha sushyadau prakrute purushatparam evam dhyayati yo nityam sa yogi yoginam varaha namo gatapataye namo ganapataye namo pramatapataye namaste astu lambodaraye kadantaya vigranashine shivasutaya varadamurtaye namaha Etadadharvashirsham yodhite sa brahma bhoyaya kalpate sa sarva vigraila badhyate sa sarvatra sukhamedhate sa pancha mahapapat pramuchyate sayamadhiyano divasakritam papannashayate Prataradhiyano ratrikritam papannashayate Sayam pratakrayanjano papo papo bhavate Sarvatradhiyano pavikno bhavate Dharmartakama moksham charindate Itamadharvashishamashishyayana deyam Yo yadi mohat dasyati sapapiyan bhavati sahasravartanadyam yam kamamadhite tam tamalena sadhayet anena ganapatim abhishinchati savagmi bhavati chaturdhyamanashnan japati savidyavan bhavati Ityadharvana vakyam brahmadhyavaranam vidyana vivedikadachaneti yodurvankurai yajati savaishravanopamo bhavati yolajai yajati sayashovan bhavati swamedhavan bhavati Yo modaka sahasrena yajati savanchita phalamavapnoti yasajya samiddhir yajati sasarvam labhate ashtau brahmanan samyagrahayitva suryavarchasvi bhavati Suryagrahe mahanadyam pratima sannidau vajatva siddha mantro bhavati महाविघ्नात् प्रमुच्यते, महादोषात् प्रमुच्यते, महाप्रत्यवायात् प्रमुच्यते, स सर्वविद्भवति स सर्वविद्भवति, य एवं वेदा इत्युपनिषत्।
भद्रं कर्णे विश्रुणुयाम देवा, भद्रं पश्ये वाक्षभिर्यजत्रा,
स्थिरैरङ्गैः सुष्ठुवागुंसस्तनोभिः, व्यशेम देवहितं यदायुः, स्वस्ति न इन्द्रो वृद्धश्रवा, स्वस्ति नः पूषा विश्ववेदाः, स्वस्ति नस्ताक्षो अरिष्ठनेमिः, स्वस्ति नो बृहस्पतिर्ददातु। शान्ति शान्ति शान्तिः। ॐ अग्निर्मे वाचिश्रितः वाग्हृदये, हृदयं मये अहमृते, अमृतं ब्रह्मणे, वायुर्मे प्राणे श्रितः, प्राणो हृदये, हृदयं मये अहमृते, अमृतं ब्रह्मणे, सूर्यो मे चक्षुषश्रितः, चक्षुर्हृदये, हृदयं मये अहमृते, अमृतं ब्रह्मणे, चन्द्रमा मे मनसि श्रितः, मनोहृदये, हृदयं मये अहमृते, अमृतं ब्रह्मणे, दिशो मे श्रोत्रे श्रिताः, श्रोत्रगुं हृदये, हृदयं मये अहमृते, अमृतं ब्रह्मणे, आपो मे रेतसि श्रिताः, रेतो हृदये, हृदयं मये अहमृते, अमृतं ब्रह्मणे, पृथिवी मे शरीरे श्रिताः, शरीरगुं हृदये, हृदयं मये अहमृते, अमृतं ब्रह्मणे, ओषधिवनस्पतयो मे लोमसि श्रिताः, लोमानि हृदये, हृदयं मये अहमृते, अमृतं ब्रह्मणे, इन्द्रो मे बले श्रितः, बलगुं हृदये, हृदयं मये अहमृते, अमृतं ब्रह्मणे, पर्जन्यो मे मूर्ध्निः श्रितः, मूर्धा हृदये, हृदयं मये अहमृते, अमृतं ब्रह्मणे, ईशानो मे मन्यौ श्रितः, मन्युर्हृदये, हृदयं मये अहमृते, अमृतं ब्रह्मणे, आत्मा म आत्मनि श्रितः, आत्मा हृदये, हृदयं मये अहमृते, अमृतं ब्रह्मणे, पुनर्म आत्मा पुनरायुरागात्, पुनः प्राणः पुनराकोतमागात्, वैश्वानरो रश्मिभिर्मावृधानः, अन्तस्तिष्ठत्वमृतस्य गोपाः, ॐ शान्ति शान्ति शान्तिः।
राजादिराजाय प्रसंयसाहिने नमो वयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महे महेशा गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति